रक्षोहणम् वाजिनवाजिघर्म मित्रम् प्रतिष्ठमुपजामि शर्म शिशा नो अग्निः क्रतुभिः समिद्धः स नो निवास निषः पादुनक्तम् अजोदंष्ट्रो अर्चिषा जातुधानानुपस्पृशजात वेदः समिद्धः आदिह्वजापोरदेवान्रभस्वक्रव्यादो वृक्प्यपि धत्स्वासन् उभोभया भिन्नपदे हिदंष्ट्रा हिंस्रशिशानोपरम्परम् च उतान्तरिक्षे परिजाहिराजञ्जम् भैः सन्धे ह्यभिजातुधानान् यज्ञैरुषो सन्नममानो अग्ने वाचा शल्याम् अशनिभिर्दिहानः ताभिर्विद्यहृदये जातुधानान् प्रदेशो बाहोन्प्रतिबङ्घेश अग्ने त्वचै जातुधानस्य बिन्धि हिंस्राशनिर्हरसाहन्वेनम् प्रपरवाणि जातवेदश्रणेः क्रव्यात्क्रविष्णुर्विचिनोद वृक्णम् यत्रेतानीम् पश्यसि जातवेदस्तिष्ठन्तमग्न उदपाचरन्तम् यद्वान्तरिक्षे पदिभिः पतन्तम् तमस्ता विद्यशर्वाशिषानः उतालब्धम् स्पृणहि जातवेद आलेभाना दृष्ट्यभिर्जातुधानात् अग्ने पूर्वो निजहि शोषजान आमादः क्ष्विङ्कास्तमदन्वेनेः इह प्रब्रोहि यतमस्सो अग्नेजो जातुधानो य इदम् कृणोति तमारभस्व समिधाजविष्ठनुचक्षसश्चक्षुषे रन्धजैनाम् तीक्ष्णेना अग्ने चक्षुषा रक्षयज्ञम् प्राञ्चम् वसुभ्यः प्रणय प्रचेतः हिंस्रम् रक्षांसि विशोषजानम् मात्वा दभन्यातुधानानुचक्षः नृचक्षा रक्षः परिपश्य भिक्षुतस्य त्रीणि प्रतिसृणे ह्यग्रा तस्याग्ने वृष्टेरहरसा शृणेः त्रेधा मूलैयातुधानस्य वृश्च त्रिर्यातुधानः प्रसितिन्त एत्रतयो अग्ने अनृतेन हन्ति तमर्चिषा स्फोर्जयन् जातवेदः समक्षमेनम् गृढते निवृङ्धे तदग्ने चक्षः प्रतिधेहि रेभेश भारुजञ्जेन पश्यसि यातुधानम् अथर्ववज्योतिषा दैव्येन सत्यम् धारवन्तमचितन्योष यदग्ने अद्य मिथुनाशवातो यद्वाचस्त्रष्टम् जनयन्तरेभाः मन्योर्मनसः शरव्या अजायते जातजा विद्यहृदये जातुधानान् परा शृणेः तपसा जातुधानान् परा अग्ने रक्षो हरसा शृणेः परार्चिषा पोरदेवान् शृणेः परा सुद्रपो अभिशोषजानः पराद्य देवावृजिनम् शृणन्त प्रत्यगेनम् शवथा जन्तु दृष्टाः वाचास्ते नम् शरपरच्छन्त परमन् विश्वस्यैतु प्रसितै यातुधानाः यः पौरुषेजेण क्रमिषा समङ्गेजो अश्वेन पशुना जातुधानाः यो अध्याया भरति क्षीरमग्ने देशाम् शेरुषाणि हरसापि वृश्च संवत्सरेणम् वय उश्रया जास्तस्य माशेत्यातुधानो अनुचक्षः पेयोषमग्ने च तमस्ति द्रप्सात्तम् व्रत्यम् च मर्त्युषा विध्यमर्मन् विषङ्गवा अय्यातुधानाः पिबन्त्वा वृश्चन्दामजितये दुरेवाः परैनाम् देवः सविता ददातु परा भागमौषधीनाम् जयन्ताम् सनादग्ने मृणसि यातुधानान्नत्वा रक्षांसि मृदनासु जिज्ञः अनुदः सहमो ओरान् क्रव्यादो माते हेत्यामक्षतदैव्याजाः त्वन्ना अग्ने अधरादुदक्ता त्वम् पश्चादुदरक्षा पुरस्तात् प्रतितेते अजरा असस्तपिष्ठा अघषम् संशोषुचतो दहन्त पश्चात्पुरस्तादधरादुदक्तात् कविः काव्येन परिपाहि राजन् Sakhe sakha aja bajaro aja rimdek de bartang amartyastannaha Paritvagne param vajam vipram sahasya dhimahe Dhrushadvarnan dive dive hantaram bhanguravatam Vishena bhanguravatav pradishma rakshaso odaha Agne dikmena shojishatapuragravar rashtibhehe Pratyakne mithuna dahaja tudhana akimedina Sanda shishamija grahyadabdham vipramanma bhehe Pratyakne harasahara shrinehe vishvadav prade Yarodhanasya rakshaso balam viruja viryam